ॐ श्री गुरुभ्यो नमः हरिः ॐ नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नमः ओषधीभ्यः नमो पाचे नमो वाजस्पतये नमो विष्णवे बृहदे करोमि तच्छञ्योरावृणीमहे गातुञ्यज्ञाय गातुञ्यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगादुभे सजं सन्नो अस्तु द्विपदे संचतुष्पदे नमो वाचे याचोदिताय चानुदिता तस्यै वाचे नमो नमो वाचे नमो वाचस्पदये नमः ऋषिभ्यो मन्त्रग्रद्भ्यो मन्त्रपदिभ्यो मामां ऋषयो मन्त्रकृतो मन्त्रपतय पराधुर्माहमृषीन् मन्त्रकृतो मन्त्रपतीन् परादां वैश्वदेवीं वाचमुद्यसगुं शिवामदस्तां जुष्णां देवेभ्य सर्ममेद्योः सर्मपृथिवी सर्मविश्वमिदं जगद सर्मश्चन्द्रश्च सूर्यश्च सर्म ब्रह्मप्रजापति भूतं वदिष्ये भुवनं वदिष्ये तेजो वदिष्ये यशो वदिष्ये तपो वदिष्ये ब्रह्म वदिष्ये सत्यं वदिष्ये तस्मा अहमिदमुपस्तरणमुपस्त्रण उपस्तरणं मे प्रजायै पशूनां भूयादुपस्तरणमहम् प्रजायै पशूनां भूयासं प्राणापानौ मृत्योर्मापातं प्राणापानौ मामाहासिष्टं मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मिमधुमदीं देवेभ्यो वाचमुद्यासगुं शुश्रुश्रेण्याम् मनुष्येभ्यस्तं मा देव अवन्तु शोभायै पितरो नु मदन्तु ॐ